एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अद्य राष्ट्रनिर्मातुः पृथ्वीनारायण शाहस्य चतुरुत्तर त्रिशततम जन्म जयन्ती विभिन्नान् कार्यक्रमान् आयोज्य समायोज्यमाना वर्तते। एकोनशीत्युत्तर सप्तदश शततमे विक्रमवर्षे लब्धजन्मनः साहस्य जन्म जयन्ती राष्ट्रियैकता दिवसः अद्य आराष्ट्रं विभिन्नैः कार्यक्रमैः सह समायोज्यमानोऽस्ति। पृथ्वी जयन्त्याः अवसरे अद्य राष्ट्रिय प्रजातन्त्र दलेन चायपान समारोह समायोजितोऽस्ति। राप्रपा दलेन आयोजिते समारोहे प्रधानमन्त्री विभिन्न राजनीतिक दलानां शीर्ष नेतारः पूर्व प्रधानमन्त्रिणः विभिन्न विशिष्ट व्यक्तयश्च आहूताः वर्तन्ते। एतदवसरे पूर्वराजेन ज्ञानेन्द्र शाहेन शुभकामना सन्देशः प्रदत्तोऽस्ति। अवसरेऽस्मिन् सर्वकारेण सार्वजनिकावकाशः प्रदत्तो वर्तते। अद्यतः नेपाली कांग्रेस दलस्य विशेष महाधिवेशनस्य पक्षधर समूहेन दलस्य द्वितीय विशेष महाधिवेशनम् विधीयमानम् वर्तते। नेपाली कांग्रेस दलस्य महामन्त्रीद्वयेन गगन कुमार थापा विधस्य विश्वप्रकाश शर्मणश्च समर्थनेन सम्पाद्यमानस्य द्वितीय विशेष महाधिवेशनस्य सम्पूर्णं पूर्वकार्यं प्रपूरितम् अस्तीति ज्ञापितम् वर्तते। पूर्वेद्युः काष्ठमण्डपे पत्रकार सम्मेलनमायोज्य विशेष महाधिवेशनस्य पक्षधर समूहेन अद्यतः काष्ठमण्डपस्य भ्रिकुटीमण्डपस्थाने आरभमाणस्य विशेष महाधिवेशनस्य सम्पूर्ण पूर्वकार्याणि प्रपूरितानि सन्तीति सूचितम् अस्ति। नेपाले अधुनापि 10.27% जनसंख्या विपन्नतायाः रेखातः अधः सन्तीति अध्ययनेन दर्शितमस्ति। राष्ट्रिय तथ्यांक कार्यालयेन परह्यः शुक्रवासरे सार्वजनिकृतेन विपन्नतायाः 23.2 ख्रीष्टवर्षीय लघु क्षेत्रानुमान प्रतिवेदनेन नगरीय क्षेत्रे 10.8% ग्रामीण क्षेत्रे 10.67% जनसंख्या विपन्नताया रेखातः अधः सन्तीति दर्शितमस्ति। प्रदेशगत रूपेण सर्वाधिक विपन्नताया अनुपात सुदूरपश्चिम प्रदेशे 10.1634% अस्ति। सर्वाधिक न्यून विपन्नताया अनुपात गण्डकी प्रदेशे 10.8% अस्तीति प्रतिवेदनेन दर्शितमस्ति। नेकपा एमाले दलस्य वर्तमान केन्द्रीय समितेः द्वितीयोपवेशः सुसम्पन्नोऽस्ति। ललितपुरे ह्य उपविष्टः उपवेश दलस्य द्वितीय विधानमाधिवेशनेन एकादशेन राष्ट्रियमाधिवेशनेन च दलस्य विधाने विहितं संशोधनमाधृत्य दलस्य नियमावल्याम् आवश्यकं संशोधनं केन्द्रीय सचिवालयोपवेशेन विहितानां निर्णयानाम् अनुमोदनं च कृत्वा सम्पन्नोऽस्तीति एमाले दलस्य केन्द्रीय प्रचार प्रकाशन विभागस्य प्रमुख मीनबहादुर साई असूचयत। उपवेशे एकादश राष्ट्रिय महाधिवेशने सम्भूतम् आसन्नाष्टकोटीनां रूप्यकाणां व्ययविवरणं सार्वजनिकृतम् अस्तीति च केन्द्रीय प्रचार प्रकाशन विभागस्य प्रमुख साई असूचयत। उपवेशं सम्बोधयन् दलस्य अध्यक्ष केपी शर्मा ओली आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभायाः सदस्यानां निर्वाचनेन निष्पक्षेण शान्तिपूर्णेन च भाव्यं भयरहिते वातावरणे निर्वाचनं सम्पत्स्यतीति सुनिश्चयनं सर्वकारेण विधातव्यमिति च बलं दत्तवान् आसीत्। नेपाली कांग्रेस दलेन दलस्य नेतुः पूर्वमन्त्रिणश्च होमनाथ दाहालस्य निधनं प्रति शोक प्रस्तावः पारितीकृतो वर्तते। दलस्य कार्यवाहक सभापतेः पूर्णबहादुर खड्काविदस्य सभापतित्वे ह्य सानेपावर्तिनी दल केन्द्रीय कार्यालये उपविष्टेन दलस्य आकस्मिकोपवेशेन दलस्य पूर्व केन्द्रीय सदस्यस्य प्रवक्तुः पूर्व मन्त्रिणः नेपाल पत्रकार महासंघस्य पूर्व सभापतेश्च दाहालस्य निधनं प्रति शोक प्रस्तावं पारितीकृत्य दुःखं व्यक्तं वर्तते। स्वर्गीयेण दाहालेन देशस्य दलस्य विभिन्नेषु पदेषु स्थित्वा नेपाली कांग्रेस दलस्य संगठन निर्माणाय नेपालस्य लोकतान्त्रिकान्दोलने नेतृत्वदायी भूमिका निर्विडासीदिति दल केन्द्रीय कार्यालयेन ज्ञापितं वर्तते। चतुरशीतेः वर्षाणां वयसि दाहाल परह्य रात्रौ दिवंगत आसीत्। दाहालस्य दिवंगतस्य पाशुपत क्षेत्रस्य आर्यघट्टे दाह संस्कारः विहितोऽस्ति। उज्यालो नेपाल दलेन कुलमान घिसिङ अध्यक्ष पदे नियुक्तोऽस्ति। राष्ट्रिय स्वतन्त्र दलेन सह वीरतायाः एकतायाः विफलतायाः पश्चात् दलस्य त्रिपुरेश्वरवर्तिनी केन्द्रीय कार्यालये ह्य उपविष्टेन केन्द्रीय समितेः उपवेशेन घिसिङ उज्यालो नेपाल दलस्य अध्यक्ष नियुक्तो वर्तते। उपवेशेन दलस्य निवर्तमान अध्यक्षेण अनुपकुमार उपाध्यायेन प्रदत्तं त्यागपत्रं स्वीकृतं च वर्तते। उज्यालो नेपाल दलस्य अध्यक्ष घिसिङ ह्य आयोजिते पत्रकार सम्मेलने रासोपा दले साधारण सदस्य पदे स्थित्वा कार्यं कर्तुं तत्परताया पश्चादपि सहमति धर्तुं न सक्तेति टिप्पणीम् अकरोत्। अत्रान्तरे रासोपा नाम्ना राष्ट्रिय स्वतन्त्र दलेन दलस्य नाम्नः एव परिवर्तनस्य प्रस्तावस्य प्रस्तुतेः पश्चात् उज्यालो नेपाल दलेन सह एकता त्रुटिता स्थिति स्पष्टीकृतं वर्तते। उज्यालो नेपाल दलेन सह वीरतायाः एकतायाः समाप्ते पश्चात् ह्य उपविष्टेन रासोपा दलस्य सचिवालयोपवेशेन कुलमान घिसिङ इत्यनेन क्रमशः बहुनां प्रस्तावानां प्रस्तुतेः पश्चात् एकता कार्येण पूर्णता प्राप्तुं न सक्तेति निष्कर्ष प्रकाशितोऽस्तीति नेता शिशिर खनालः असूचयत्। घिसिङ इत्यनेन दलस्य नूतनं नाम स्थापनीयं, वरिष्ठोपाध्यक्ष पदं प्रदातव्यं, निर्वाचनक्षेत्रस्य स्थानानि आवंटनीयानि, दलस्य अन्य पदाधिकारीष्वपि स्वीय जनाः नियोक्तव्याः इति च प्रस्तावानां प्रस्तुते पश्चात् एकता कार्यं न पूर्णताम् अगादिति दलसभापतिः रवि लामी छाने उपवेशे अज्ञापयत्।